अथर्वशीर्ष फलश्रुति। एतत् अथर्वशीर्षं योधीते स ब्रह्म भूयाय कल्पते, स सर्वतः सुखमेधते, स सर्वविघ्नैर्न बाध्यते, स पश्च महापापात् प्रमुच्यते, सायं धियानो दिवसकृतं पापं नाशयति, प्रातर्धियानो रात्रिकृतं पापं नाशयति, सायं प्रातः प्रयुञ्जानो अपापो भवति, सर्वत्राधियानो अपविघ्नो भवति, धर्मार्थकाममोक्षं च विन्दति। इदम् अथर्वशीर्षं शिष्याय न देयम्, यो यदि मोहात् दास्यति स पापीयान् भवति। सहस्रावर्तनायं यं काममधीते तं तमनेन साधयेत्, अनेन गणपतिम् अभिषिञ्चति स वाग्मी भवति। चतुर्थ्या मनश्नं जपति स विद्यावान् भवति इति अथर्वणवाक्यम्। ब्रह्माद्याचरणं विद्या न विवेति कदाचनेति, यो दुर्वां पुरैर्यजति स वै श्रवणोपमो भवति, यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति, यः साजसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते। अष्टौ ब्राह्मणान् सम्यगाहयित्वा सूर्यवर्चस्वी भवति, सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वाजत्वा सिद्धमन्त्रौ भवति। महाविघ्नात् प्रमुच्यते, महादोषात् प्रमुच्यते, महापापात् प्रमुच्यते, स सर्वविद्भवति, स सर्वविद्भवति, स एवं वेद इति उपनिषत्। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहे, तेजस्विनावधीतमस्तु, मा विद्विषावहे। ॐ भद्रं कर्णेभिः, शृणुयां देवाः, भद्रं पश्चिमाक्षिभिर्यजत्रः, स्थिररङ्गैस्तुष्टु वासस्तनुभिः, यस्येम देवहितं यदायुः, स्वस्ति न इन्द्रो वृद्धश्रवः, स्वस्ति नः पूषा विश्ववेदः, स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्तिः शान्तिः शान्तिः। इति श्रीगणपति अथर्वशीर्षसमाप्तम्।